Ishvara Parama Krishna Sachit Ananda Vigraha Anadir Adir Govinda Sarvakarana Karanam Chintamani Prakara Sadma Sukalpa Vriksha Laksha Priteshu Surabhir Abhipalayantam Lakshmi Sahasra Shata Sambrahma Sevyamanam Govindamani Purusham Amaham Vajami Venum Panvantam Aravinda Dalaya Taksham Barhavatam Sam Asitam Buddha Sundarangam Kandarpa Koti Kamaniya Vishesha Shoham Govindamani Purusham Amaham Vajami Aloka Chandra Kala Sadmana Malya Vamshi Ratnangadam Pranaya Kedika Lalilasam Shamam Trivangaladitam Diyata Prakasham Govindamani Purusham Amaham Vajami Angani Yasya Sakalendriya Vritti Manti Pashyanti Panti Kalayanti Chiram Jaganti Ananda Chinmaya Sarujvala Vigrahasya Govindamani Purusham Amaham Vajami Advaitam Achyutim Ananim Anantarupam Adyam Purana Purusham Navayovanam Cha Vedeshu Durlabham Adurlabham Atma Bhakto Govindamani Purusham Amaham Vajami Pantastu Koti Shatavatsara Sampragamyo Vayoratapi Manasomani Pungavanam Sopyasti Yatra Parasinya Vachintya Tatve Govindamani Purusham Amaham Vajami Ekopya Savrachayatam Jagadanta Kotim Yashakti Rasti Jagadanta Chayaya Dantaha Andanta Rasta Paramanu Chayanta Rastam Govindamani Purusham Amaham Vajami Yadbhava Bhava Tadiyomana Chasta Taiva Samprabhya Rupa Mahimasha Nayana Bhushaha Suktairya Viva Nigama Pratitaistu Vanti Govindamani Purusham Amaham Vajami Ananda Chinmaya Rasa Pratibhavi Tavis Tavirya Eva Nijarupa Tayaka Davihi Goloka Eva Nivisadya Kilatma Bhuto Govindamani Purusham Amaham Vajami Rimanjana Churita Bhakti Vilochanena Santaksa Daiva Hridayeshu Vilokayanti Yamshama Sundaram Achincha Gunasvarupam Govindamadi Purusham Amaham Vajami Ramadi Murtu Shukalani Amena Tishtan Nana Avataram Akarod Bhuvaneshu Kinto Krishna Svayam Samabhavak Paramapumanyo Govindamadi Purusham Amaham Vajami Yasya Prapa Prabhavato Jagadanda Koti Koti Svasheshu Vasudadi Vibhuti Vinnam Tat Brahma Nishkalam Anantam Ashesha Bhutam Govindamadi Purusham Amaham Vajami Maya Hiyasya Jagadanda Shatani Sute Traigunya Tat Vishaya Veda Vitaya Mana Sattvavalambi Parasattvam Vishuddha Sattvam Govindamadi Purusham Amaham Vajami Ananda Chinmaya Rasapatayama Naksu Yatpraninam Hariphalam Smaratamu Petya Lilayatena Bhuvanani Jagatya Jasram Govindamadi Purusham Amaham Vajami Goloka Nani Nijadami Talecha Chasya Devi Maheshu Haridama Sutteshu Teshu Tete Prabhava Nichayabhi Kaschayena Govindamani Purusham Amaham Vajami Srishti Stati Pralaya Sadhana Shakti Rekha Chayeva Yasya Bhuvanani Vibharati Durga Ichchanu Rupam Api Yasya Tatishtatesa Govindamani Purusham Amaham Vajami क्षीरम यथाति विकार विशेष योगात् संजायते पृथक पृथक स्थि हेतु यक्षम भूतामपि तथा समुपैति कार्यात् गोविंदवादि पुरुषम अहमहं भजामि दीपार्षदेव दृशम अभ्युपेत्य दीपायते वृत्त हेतु समान धर्म यस्तादृगेव हि च विष्णुतया विभाति गोविंदमादि पुरुषम अहमहं भजामि यत्कारणार्णवजने भजति स्म योग निद्रामनन्द जगदन्द सरोमकूपः आधारशक्तिम् अवलम्ब्य परां स्वमूर्तिम् गोविन्दमादि पुरुषम् अहमहं भजामि यस्यैकनिश्वसितकालमथावलम्ब्य जीवन्ति लोम विरचा जगदन्दनाथाः विष्णुर्महांसि हृदयस्य कलाविशेषो गोविन्दमादि पुरुषम् अहमहं भजामि बाष्पान्यथां श्म सकलेषु नृजेषु तेजः प्रियं कियत्प्रकर्यथ विखद्वदत्र ब्रह्माय एष जगदन्द विधानकर्ता गोविन्दमादि पुरुषम् अहमहं भजामि यत्पादपल्लवयुगम् विदधाय कुम्भ द्वन्द्वे प्रणाम समये सकनाधिराजः विघ्नाङ्गहन्तम् अलमस्य जगत्त्रयस्य गोविन्दमादि पुरुषम् अहमहं भजामि अग्निर्महीपुरमम्बुमरुद्दिशश्च कालस्तथात्ममनसी च जगत्त्रयानि यस्माद्भवन्ति विभवन्ति विशन्ति यं च गोविन्दमादि पुरुषम् अहमहं भजामि यक्षेश सविता सकलग्रहाणाम् राजा समस्त सुरमूर्तिर्विशेष तेजः यस्याज्ञया प्रमिति संवृतकालपुत्रो गोविन्दमादि पुरुषम् अहमहं भजामि धर्मोतपापनिचयाश्रुतयस्तपांसि ब्रह्मादिकीतपतकावदयश्च जीव यद्दत्र मात्रविभव प्रकृतप्रभाव
गोविन्दमादि पुरुषम् अहमहं भजामि
यस्त्विन्द्रगोपमतवेन्द्रमहोस्वकर्म बन्धानुरूपफलभाजनमातनोति कर्माणि निर्दहतु किन्तु च भक्तिभाजाम् गोविन्दमादि पुरुषम् अहमहं भजामि यं क्रोधकामसहचाप्रणयादिभीति वात्सल्यमोहगुरुगौरवसेव्यभावै सन्ध्यथश शतसिन्धनमापुरेते गोविन्दमादि पुरुषम् अहमहं भजामि श्रियाकन्तकन्त परमपुरुषकल्पतर्वो द्रुमा भूमिश्चिन्तामनीघनामयी त्वयमृतम् तथा गानम् नाट्यम् गनमम् अम्बुमंशी प्रिया सखी चिदानन्दम् ज्योति परम् अपि तदस्माद्यमपि च स यत्र प्युरपि श्रवति सुरावीभ्यश्च सुमहान् निमेषाज्ञाप्यो वा व्रजति न्यहि यत्रापि समया भजे श्वेताद्वीपम् तमहम् इह गोलोकमित्यम् विदन्तस्ते शतशति विरलाचरा कतिपये ईश्वर परमा कृष्ण सचिदानन्द विग्रह गोविन्द सर्वकारण कारणम्।